सत्यम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अभिव्यक्तवान् यत् देशस्य वस्त्रक्षेत्रं 30-2000 यावत् 900,00,000,000 रूप्यकाणां वार्षिकं निर्यातलक्ष्यं प्राप्स्यति। नवदिल्ल्याः भारतमण्डपे ह्यः भारत टैक्स 25-2000 सम्मेलने उपस्थितान् जनान् सम्बोधयन् श्रीमोदी अवोचत् यत् भारतस्य सांस्कृतिक विविधता देशस्य विविधेष् भागेष् शिल्पमानेष् वस्त्रेष् उदीयमाना वर्तते। असौ अग्रे कथितवान् यत् विगतेष् दशस् वर्षेष् हस्तशिल्पं वर्धयितुं 400,00,000 यावत् बृहत्तमस्तरीया कार्यक्रमा अपि प्रचालिता। ध्यातव्यमस्ति यत् भारत टैक्स इति एक प्रमुख वैश्विक कार्यक्रमो विद्यते यस्यायोजनं फरवरी मासस्य 14 दिनांकत 17 दिनांकपर्यन्तं भवतीति। कतरदेशस्य राष्ट्राध्यक्ष शेख तमीम बिन हमाद अल्थानी इत्येष अद्यारभ्य भारतस्य द्विदिवसीय यात्रायाम् आगच्छति, यत्र असौ प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मन्त्रणां करिष्यति। तेन सह एकम् उच्चस्तरीयं प्रतिनिधिमण्डलमपि आयाति, यस्मिन् मन्त्रिणः वरिष्ठाधिकारिणः व्यावसायिक प्रतिनिधिमण्डलं सम्मिलिताः वर्तन्ते। विदेश मन्त्रालयेन विज्ञापितं यत् कतरस्य प्रमुखस्य इयं यात्रा सहभागिताम् इतोऽपि गतिं प्रदास्यति, अपि च भारत कतर देशयोर्मध्ये मैत्रीपूर्णस्य विश्वासस्य पारस्परिक सम्मानस्य च गहन ऐतिहासिक सम्बन्धः अपि विद्यते। विदेश मन्त्रालयेन अग्रे प्रतिपादितं यत् विगतेष् वर्षेष् व्यापार निवेशोर्जा प्रौद्योगिकी संस्कृति विषयान् समेत्य उभयोः देशयोर्मध्ये सम्बन्धः सुदृढो जातः। विदेशमन्त्री डॉ एस जयशंकर ह्यः ओमानदेशस्य राजधान्यां मस्कटनगरे हिन्द महासागर सम्मेलनावधौ मॉरिशस मालदीव नेपाल भूटान श्रीलंका देशानां स्वीयैः समकक्षैः सह उपवेशनम् एकं विहितवान्। डॉ जयशंकर स्वीयेन मॉरिशस देशीयेन समकक्षेण धनंजय रितेश रामफूल इत्येतेन सह मेलनं कृत्वा उभयोः देशयोः मध्ये मित्रतायाः विशिष्ट सम्बन्धस्य प्रबलतायै स्वप्रतिबद्धतां प्रकटितवान्। तदनु मालदीवदेशस्य स्वकीयेन समकक्षेण अब्दुल्ला खलील इत्यमुना साकं उपवेशनम् अकरोत्, यत्र उभौ नेतारौ भारत मालदीवयोः अनेकेष् पक्षेष् वार्तां साधितवन्तौ। एतदनन्तरं श्रीलंका देशीयेन विजिता हेरात इत्येतेन सार्धमपि चर्चां कृत्वा अनेकेष् व्यापक सहयोगेष् स्वाकांक्षाः प्रकटितवान्। तदनु नेपालदेशीयेन समकक्षेण आरजू राणा देउबा इत्यनेन साकं भूटानदेशीयेन सहभागिना डीएन धुंगेल इत्यमुना समं विदेशमन्त्री विविधेषु महत्वपूर्णेषु क्षेत्रेषु चर्चां कृतवान्। अवधेयं वर्तते यत् अष्टमं हिन्द महासागर सम्मेलनं ह्यः अद्य च मस्कटनगरे ओमानदेशस्य विदेशमन्त्रालयस्य सहयोगेन इण्डिया फाउण्डेशन एतद्वारा समायोज्यते। ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी इत्यसौ अद्य ओडिशा विधानसभायाम् अस्य वित्तीयवर्षस्य कृते अर्थसंकल्पना पत्रं प्रस्तोष्यति। ओडिशा विधानसभायाः इदं वित्तसंकल्पनासत्रं 13 दिनांके समारब्धम्, अपि च अप्रैल मासस्य 5 दिनांकं यावत् प्रचलिष्यति। अपरत्र असम विधानसभायाः अर्थसंकल्पनासत्रं अद्य आरभ्य मार्च मासस्य 25 दिनांकं यावत् दिसपुरे विधानसभायाः आयोजयिष्यति इति वार्ताः।